केशु सर्वेष्व विनावकेशी केशी सभोजेशि दुरिष्ट बन्धुः त्वं सिन्धुजावाप्यैरीव मत्वा सम्प्राप्तवान् सिन्धुजवादिरूपः गन्धर्वतामेष गतो विरूक्षैर्नादैस्त्वमुद्वेजिर सर्वलोकः भवद्विलोकावधिगोपवाडिम् प्रमध्य पाप पुनराप सत्त्वम् तक्ष्यार्पिताङ्घ्रेस्तव दार्क्ष्य एष शिक्षेप वक्षो भुवि नाम पादम् मृगोपदाखात कथम् निशम्य स्वेनापि शक्यम् तदिदीव मोहात् प्रवञ्जयन्नस्य कुराञ्जलम् द्रात् अमुम् च शिक्षेऽपि तदूर दूरम् सम्मूर्छितोऽपि हृदि मूर्छितेन क्रोधोष्मणाखादिदुमादृतस्त्वम् त्वम् वाकदण्डे कृदधीश्च वाहादण्डम् न्यधास्तस्य मुखे तदानीम् तद्वृद्धिरुद्धश्वसनो गदास्तु सप्तीभवन्नप्ययमैक्यमागात् आलम्भमात्रेण पशोस्तुराणाम् प्रसादगे नूत्न इवाश्वमेधे कृते त्वया हर्षवशात् सुरेन्द्रा त्वाम् तुष्टुवुः केशव नामधेयम् कंसायते शौरिसुदत्वमुक्त्वा तम् तद्वदोत्कम् प्रतिरुध्य वाजा प्राप्तेन केशिक्षवणावसाने श्रीनारदेन त्वमभिश्रुतोऽभूः कदापि गोपैस्तः काननान्दे निरायन क्रीडनलोलुपम् त्वाम् मयात्मज प्रापदुरन्दमायो व्योमाभिदो व्योमचरोपरोधी सचोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशुंश्च गुहासु कृत्वा पिदधे शिलापि त्वया जबुद्ध्वा परिमर्दितोऽभूत् एवम् विदैश्चाद्भुतकेलिभेदैरानन्दमूर्च्छा मधुलाम् व्रजस्य पदे पदे नोदनयन्न सीमाम् परात्मरूपिन् पवनेशपायाः श्रीहरैः नमः गोपिका जीवनस्मरणम् गोविन्दा गोविन्दा।